इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतस्य द्रुतगत्या वर्धमानस्य विश्वसनीय वैश्विक शक्तिरूपेण परिवर्तनस्य प्रेरक शक्तिः राष्ट्रप्रथमस्य सिद्धान्तः एव अस्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। नवदिल्ल्याम् एकेन निज वार्तावाहिन्या आयोजिते सम्मेलने सम्बोधयन् प्रधानमन्त्री श्रीमोदी अवदत् यत् विगत दशके देशस्य उपलब्धयः विश्वासे स्थिरतायां बृहत्तर वैश्विक कल्याणाय प्रतिबद्धतायां च निहिताः सन्ति।
भारत जो कर रहा है वो आने वाले 1000 वर्ष का फ्यूचर लिखने वाला है और यही दुनिया के लिए सबसे बड़ी भारत की गारंटी है। भारत फास्ट ग्रोइंग इकोनॉमी भी है, एक क्रेडिबल इकोनॉमी भी है।
सम्प्रति G7 शिखर सम्मेलने स्वस्य सहभागितायाः उल्लेखं कुर्वन् सः अवदत् यत् राष्ट्रियहितं सर्वोपरि स्थापयितुं भारतस्य अविचल प्रतिबद्धतां वैश्विकनेतारः स्वीकृतवन्तः। सर्वकारस्य 12 वर्षाणां कार्यकालस्य उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् स्वच्छ भारत, मेक इन इण्डिया, खादिप्रचारः, स्थानीय उत्पादानां समर्थनम् इत्यादयः उपक्रमाः सफलाः अभवन् येन नागरिकाः राष्ट्रनिर्माणस्य भावम् अङ्गीकृतवन्तः। प्रधानमन्त्री अवदत् यत् सद्यः एव केषुचित् वर्षेषु प्रायः 25 कोटिशः जनाः निर्धनवर्गात् बहिः समागताः येन विशालः नव मध्यमवर्गः उद्भूतः, आर्थिक क्रियाकलापाश्च प्रवर्धिताः। लखनऊनगरे 15 छात्राणां मृत्योः दुःखद अग्निघटनायाः अनन्तरं द्रुत कार्याचरणस्यान्तर्गतम् आरक्षकाः गतरात्रौ 6 जनानां विरुद्धं FIR इति पञ्जीकृतवन्तः, तेषु 4 च निगडिताः। मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशानुसारं लखनऊ विकास प्राधिकरणस्य अग्निशामक विभागस्य विद्युत विभागस्य च 4 अधिकारिणः अपि निलम्बिताः अभवन्। लखनऊनगरे अग्निघटनायाः सन्दर्भे अलीगंज नगरस्य आरक्षकैः BNS तथा उत्तरप्रदेश अग्निशामक सेवा अधिनियमस्यान्तर्गतं प्रासंगिक खण्डेषु 6 अभियुक्तानां अन्याञ्च उत्तरदायी जनानां विरुद्धं FIR पञ्जीकृतम् अस्ति, यत्र ह्यः दुःखद अग्निप्रकोपः अभवत्। तस्मिन् भवने अनधिकृत निर्माणस्य विषये 16-2000 वर्षे विध्वंसादेशः प्रसारितः आसीत्, परञ्च मासद्वयाभ्यन्तरे एव आदेशः निरस्तः अभवत्। एतदतिरिच्य राज्यसर्वकारेण अग्निघटनायाः उच्चस्तरीय अन्वेषणस्य आदेशोऽपि प्रदत्तः। घटनायाः अन्वेषणार्थं SIT इति विशेष अन्वेषण दलस्य निर्माणमपि कृतमस्ति। दलं 7 दिनेषु एव स्वस्य प्रतिवेदनं समर्पयिष्यति। ह्यः अपराह्ने दुःखद अग्निघटनायां न्यूनातिन्यूनं 15 जनाः मृताः, तेषु अधिकतया 16-25 वर्षीयाः छात्राः आसन्। अलीगंज नगरस्य पुरैनिया क्षेत्रे एकस्य आपणस्योपरि कार्यरते एनिमेशन कोचिंग केन्द्रे अग्निप्रकोपः अभवत् येन छात्रेषु आतंकः उत्पन्नः। नवव्रणिताः छात्राः किंग्स जॉर्ज चिकित्सकीयं विश्वविद्यालये KGMU लखनऊ इत्यत्र प्रवेशिताः च सन्ति, अधिकांशाः श्वासावरोधेन मृताः। भारतस्य हज समित्या हज 27-2000 कृते तीर्थयात्रिभ्यः आवेदनपत्राणि आमन्त्रितम्। नीत्याः विमोचनं कुर्वन् अल्पसंख्यक कार्यमन्त्री किरेन रिजिजुः ह्यः अवदत् यत् यात्रिणः भारतीय हज समिति पोर्टल तथा हज सुविधा एप माध्यमेन च आवेदनपत्राणि ऑनलाइन माध्यमेन प्रेषयितुं शक्यन्ते, येन प्रक्रिया अधिका सरला सुलभा च भविष्यति। FIH प्रो लीग लंदन राउंड इत्यस्य उद्घाटन क्रीडायां भारतीय पुरुष हॉकी दलम् अद्य पाकिस्तान दलम् सम्मुखी करिष्यति। इति वार्ताः।